इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमंत्री नरेन्द्र मोदी ओस्लो नगरे तृतीये भारत नॉर्डिक शिखर सम्मेलने भागं भजितवान्। यस्योद्देश्यं प्रौद्योगिकी पुनर्नवीकरणीयोर्जा रक्षा व्यापार क्षेत्रेषु सहकारं सुदृढीकरणमस्ति। प्रधानमन्त्रिणा श्रीमोदिना स्वीडन देशस्य समकक्षीयेण उल्फ क्रिस्टर्सन इत्यनेन सह संयुक्तलेखे वैश्विक अनिश्चिततावधौ सहभागितायाः विषये अवधानं प्रदत्तम्। सर्वोच्च न्यायालयेन मानवजीवनस्य सार्वजनिक सुरक्षायाः च आवश्यकताम् उल्लिखन् उन्मत्तानाम् असाध्यरोगिणाम् अथवा प्रत्यक्षतया अपायकारिणां मार्गभ्रष्ट सुनकानां कृते प्रथमवारं यूथेनेशिया माध्यमेन मृत्योः अनुमतिः प्रदत्ता। अपि च आईपीएल क्रिकेट क्रीडायाम् अद्य सायंकाले जयपुरे राजस्थान रॉयल्स दलं लखनऊ सुपर जायंट्स दलं सम्मुखी करिष्यति। अथ वार्ताः विस्तरेण। तृतीयं भारत नॉर्डिक शिखर सम्मेलनम् अद्य नॉर्वे देशस्य राजधान्याम् ओस्लो नगरे समारब्धम्। प्रधानमन्त्रिणा नरेन्द्र मोदिना सह नॉर्वे, स्वीडन, आइसलैंड, फिनलैंड, डेनमार्क इत्येतेषां समकक्षिभिः सह अस्मिन् शिखर सम्मेलने भागं स्वीकृतम्। द्वाविंशत्यधिकद्विसहस्रतमे वर्षे डेनमार्क देशस्य कोपेनहेगन नगरे आयोजितस्य पूर्व शिखर सम्मेलनानन्तरं भारत नॉर्डिक देशानां मध्ये क्षेत्रीय सहकारं सुदृढीकरणम् अस्य सम्मेलनस्य उद्देश्यमस्ति। तन्त्रज्ञानं, नवान्वेषणं च, सुस्थिरता, पुनर्नवीकरणीयोर्जा, डिजिटलीकरणं च अस्य सम्मेलनस्य प्रमुखानि क्षेत्राणि सन्ति। व्यापार आर्थिक सहभागित्व सन्धिना TEPA इत्यनेन सह अधुना प्रवृत्तेन शिखर सम्मेलनस्य भारत नॉर्डिक क्षेत्राणां मध्ये व्यापार निवेश संबंधाः अपि सुदृढाः भविष्यन्ति इति अपेक्षा अस्ति। नॉर्डिक समूहेन सह भारतस्य द्वैपाक्षिक व्यापारः सम्प्रति प्रायः 21 बिलियन डॉलर मितम् अस्ति। अनेन शिखर सम्मेलनेन भारत नॉर्डिक देशयोः मध्ये बहुपक्षीय सहकारस्य विस्तारः भविष्यति तथा च परस्पर हितस्य क्षेत्रीय वैश्विक विषयेषु चर्चायाः अवसरः प्राप्यते इत्यपि अपेक्षा अस्ति। शिखर सम्मेलनात् प्राक् पूर्वं प्रधानमन्त्री मोदी आइसलैंड देशस्य प्रधानमन्त्रिणा, फिनलैंड देशस्य प्रधानमन्त्रिणा, डेनमार्क देशस्य प्रधानमन्त्रिणा च सह द्वैपाक्षिक मेलनं कृतवान्। प्रधानमन्त्री श्रीमोदी UAE, नीदरलैंड्स, स्वीडन देशानां भ्रमणं समाप्य ह्यः नॉर्वे देशं सम्प्राप्तवान्। गतसायं सः क्राउन प्रिंस हकोन तथा नॉर्वे देशस्य प्रधानमन्त्रिणा जोनास गहर स्टोन इत्युभाभ्यां सह भारत नॉर्वे व्यापार अनुसंधान शिखर सम्मेलने भागं भजितवान्। वाणिज्य अनुसंधान समुदायं संबोधयन् प्रधानमन्त्री श्रीमोदी व्यापार आर्थिक सहभागित्व सन्धेः प्रभावात् परं द्वैपाक्षिक व्यापारस्य निवेशस्य च वृद्धेः प्रशंसाम् अकरोत्। सः अधोरेखितवान् यत् उभयोः पक्षयोः हितधारकाः 100 बिलियन US डॉलर इत्यस्य निवेशलक्ष्यं साधयितुं प्रयत्नान् कुर्युः। परिणामतः भारते 10 लक्षाणि यावत् वृत्त्यावसराणां सृजनं च करणीयम्। प्रधानमन्त्री श्रीमोदी स्वस्य पञ्चराष्ट्राणां यात्रायाः पञ्चमान्तिमे चरणे च अद्य इटलीदेशं गमिष्यति। भारत स्वीडन देशौ वैश्विक अनिश्चिततायाः क्षणे सहकारः सहभागी समृद्धेः सुस्थिरस्य भविष्यस्य च मार्गं निर्धारणाय अवधानं दत्तवन्तौ। प्रधानमन्त्रिणा नरेन्द्र मोदिना तस्य स्वीडन देशस्य समकक्षीयेण उल्फ क्रिस्टर्सन इत्यनेन च लिखिते लेखे वैश्विक अनिश्चिततायाः, ऊर्जा असुरक्षायाः, आर्थिक विभाजनस्य च समये विश्वम् एकाकीभूय कार्यं कर्तुम् अन्ताराष्ट्रिय सहभागित्वं सुदृढीकर्तुं वा चयनं कर्तव्यम् इति अवधानं दत्तवन्तौ। अद्य राष्ट्रिय दैनिक पत्रिकायां प्रकाशिते लेखे उभौ प्रधानमन्त्रिणौ उक्तवन्तौ यत् संयुक्त राष्ट्र संघः स्वस्य 80तमं वार्षिकोत्सवम् आचरति। अतः अन्ताराष्ट्रिय सहयोगस्य बहुपक्षवादस्य च मूल्यम् इतोपि स्पष्टम् अभवत्। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। सर्वोच्चन्यायालयेन मानवजीवनस्य सार्वजनिकसुरक्षायाः च आवश्यकताम् उल्लिखन् उन्मत्तानाम् असाध्यरोगिणाम् अथवा प्रत्यक्षतया अपायकारिणां मार्गभ्रष्टशुनकानां कृते प्रथमवारं यूथेनेशिया माध्यमेन मृत्योः अनुमतिः प्रदत्ता। न्यायाधीशः विक्रमनाथः, न्यायाधीशः सन्दीपमेहता, न्यायाधीशः एनवी अंजारिया इत्येतेषां पीठेन सम्पूर्णे देशे वर्धमानानां स्वामी विरहितानां शुनकानां संख्यां निवारयितुं निर्देशाः प्रदत्ताः। न्यायपीठेन उक्तं यत् यत्र यत्र स्वामी विरहितानां शुनकानां संख्या चिन्ताजनकस्तरम् अवाप्नोत् तथा च यत्र पुनः पुनः शुनकानां दंशः वा आक्रमणानि जनसुरक्षायै विभीषिकां जनयन्ति तत्र नगरपालिकाः मृत्योः आश्रयं स्वीकर्तुं शक्नुवन्ति। गतवर्षस्य जुलाई मासस्य 28 दिनांके आरब्धे प्रकरणे अयमादेशः प्रसारमाध्यमानां प्रतिवेदनेषु विशेषतः राष्ट्रिय राजधान्यां बालानां मध्ये स्वामिविरहितानां शुनकानां दंशनस्य रेविज इति रोगस्य च घटनाः प्रकाशमानाः आसन्। एतदतिरिच्य सर्वोच्चन्यायालयेन स्वामिविरहितानां शुनकानां स्थानान्तरणस्य प्रजननावरोधस्य च विषये पूर्वतनस्य आदेशस्य पुनरावेदनस्य याचिका निरस्तीकृता। सः अवदत् यत् गौरवपूर्वकं जीवनस्य अधिकारे शुनकानां दंशनस्य आक्रमणात् हानिकारकं भयं विना स्वातन्त्र्यतया भ्रमणस्य अधिकारः अन्तर्भवति। केन्द्रीय वाणिज्य उद्योग मंत्री पीयूष गोयलः अद्य उद्यम सर्वकारयोः मध्ये व्यापारे सुगमतां वर्धयितुं भारते प्रतिस्पर्धात्मकं वर्धयितुं विकसित भारतं प्रति देशस्य यात्रां च त्वरितं कर्तुं प्रगाढ़ सहयोगस्य आह्वानम् अकरोत्। नवदिल्ल्यां 26,000 भारत व्यापार परिष्कार शिखर सम्मेलने मंत्री भाषमाणः आसीत्। श्री गोयलः अवदत् यत् वर्तमान वैश्विक परिस्थितिः, भूराजनैतिक अनिश्चितताः च भारतस्य कृते व्यापार प्रतिक्रियां सुदृढं कर्तुं द्रुततर परिष्कारान् स्वीकर्तुं महत्तर स्थितिस्थापकायाः निर्माणं कर्तुं आपूर्ति श्रृंखलाः सुदृढां कर्तुं च अवसरत्वेन द्रष्टव्यम्। रूसदेशस्य राष्ट्रपतिः व्लादिमीर पुतिनः चीनदेशस्य राष्ट्रपतिना शी चिनफिंग वर्येण सह मेलनं करिष्यति। क्रेमलिन इत्यस्यानुसारं उभौ नेतारौ आर्थिक सहयोगस्य विषये प्रमुखेषु प्रादेशिक वैश्विक विषयेषु च चर्चां करिष्यतः। एषा यात्रा चीन रूस मैत्रीसन्धेः 25 वर्षाणाम् उपलक्ष्ये आचर्यते। एषा वार्ता तदा अभवत् यदा वैश्विक भूराजनैतिक संघर्षस्य मध्ये चीनदेशः अमेरिकादेशेन रूसदेशेन च सह स्वस्य सम्बन्धान् सन्तोलयति। युक्रेन द्वन्द्वस्य विषये पाश्चात्य प्रतिबन्धानाम् अनन्तरम् अपि चीनदेशः रूसदेशस्य बृहत्तमः वाणिज्यिक सहभागी रूसदेशस्य तैल प्राकृतिकेन्धनस्य प्रमुखः क्रेता चास्ति। आईपीएल क्रिकेट क्रीडायाम् अद्य सायं 7:30 जयपुरे राजस्थान रॉयल्स दलं लखनऊ सुपर जायंट्स दलं सम्मुखीकरिष्यति। रॉयल चैलेंजर्स बेंगलुरु, गुजरात टाइटन्स, सनराइजर्स हैदराबाद दलानि च पूर्वमेव प्ले ऑफ क्रीडायां प्रविष्टवन्तः। मुंबई इंडियंस लखनऊ सुपर जायंट्स दले स्पर्धातः बहिः गतवन्तः। पंजाब किंग्स, राजस्थान रॉयल्स, चेन्नई सुपर किंग्स, दिल्ली कैपिटल्स, कोलकाता नाइट राइडर्स दलानि अधुनापि अंतिम स्पर्धा याम संति। अन्ते मुख्य वार्ताः पुनः एकवारम्। प्रधानमंत्री नरेन्द्र मोदी ओस्लो नगरे तृतीये भारत नॉर्डिक शिखर सम्मेलने भागं भजितवान्, यस्योद्देश्यं प्रौद्योगिकी पुनर्नवीकरणीय ऊर्जा रक्षा व्यापार क्षेत्रे सुसहकारं सुदृढीकरणमस्ति। प्रधानमन्त्रिणा मोदिना स्वीडन देशस्य समकक्षीयेण उल्फ क्रिस्टर्सन इत्यनेन सह संयुक्त लेखे वैश्विक अनिश्चिततावधौ सहभागितायाः विषये अवधानं प्रदत्तम्। आईपीएल क्रिकेट क्रीडायामद्य सायंकाले जयपुरे राजस्थान रॉयल्स दलं लखनऊ सुपर जायंट्स दलं सम्मुखी करिष्यति। इति वार्ताः।